एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली कथयति वर्तमान सर्वकारः विकासस्य समृद्धेः सुशासनस्य च संकल्पस्य पूरणस्य दिशि अग्रे वर्धमानो वर्तते। नेकपा एमाले दलस्य काष्ठमण्डप उपत्यकायाः जनपदत्रयस्य समितिभिः ह्य काष्ठमण्डपस्य दरबार मार्गस्थले आयोजिताम् जागरण सभाम् सम्बोधयन् प्रधानमन्त्री ओली स्थिरतायाः समृद्धेश्च यात्राम् अग्रे वर्धयितुम् वर्तमान सत्ता गठबन्धनम् निर्मितम् अस्ति, गठबन्धनमेतत् आगामी निर्वाचनम् यावत् स्थास्यतीति च अवोचत्। कथमविदमपि वञ्चनम् तास्कर्यम् भ्रष्टाचारः चरित्रहत्या च स्वीकार्यम् न भविष्यतीति चर्चयन् प्रधानमन्त्री ओली आत्मनः पश्चात् प्रधानमन्त्रिणी नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा आगच्छति। विपुल दलद्वयम् मिलित्वा देशस्य समृद्धियात्रा जनतायाः इच्छायानुसारेण अग्रे वर्धिष्यते चेति अगदत्। तदवसरे प्रधानमन्त्री ओली भ्रमस्य अराजकतायाः अस्थिरतायाश्च विपक्षे स्थित्वा देशे साम्प्रदायिकम् सद्भावम् संस्थाप्य आर्थिक समृद्धिमधिगन्तुम् सर्वैः प्रवर्तनीयम् इति प्रावोचत। प्रधानमन्त्री ओली स्वयं सहकारी संस्थानाम् वित्तस्य अपचलनम् विधाय अन्येषाम् निन्दनस्य प्रवृत्तिः अनुचितास्ति इति भाषमाणः, ये केऽपि दोषिणः सन्ति सर्वे दण्ड्यन्ते एवेति प्रतिबद्धताम् व्यक्तवान्। सम्प्रति देशस्य अर्थतन्त्रे क्रमशः सुधारस्य लक्षणानि दृश्यमानानि सन्ति, निवेशनस्य वातावरणम् जायमानम् अस्ति इति च चर्चयन् प्रधानमन्त्री ओली निर्भयेन व्यापार व्यवसायम् सञ्चालयितुम् अतिरिक्त निवेशनस्य क्षेत्राणि अन्वेष्टुम् च उद्योग व्यवसायिनः अन्वरुणत। प्रधानमन्त्री ओली स्वस्य आसन्न चीन देशस्य भ्रमणम् केवलम् भ्रमणाय न अपितु जनतायाः हिते केन्द्रितम् भविष्यति इति समस्पष्टयत्। प्रधानमन्त्री ओली सम्प्रति यथासम्भवम् कुतः अपि ऋणम् न स्वीक्रियते, स्वस्य उत्पादन वृद्धेर नीति सर्वकारेण गृहीतास्ति इति च अगदत्। कार्यक्रमे नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः ओम्नी गिरिबन्धु प्रवृत्तिभिः प्रकरणैः एमाले दलस्य विरूद्धे भ्रम प्रसारणस्य प्रयासा विधीयमानोऽस्तीति चर्चयन् सम्प्रति कम्बोडिया देशस्य दूरभाष संस्थायां प्रधानमन्त्रिणा ओलिनः निवेशनम् अस्तीति विषयोऽपि भ्रम प्रसारणाय आगतोऽस्तीति अगदत्। महासचिव पोखरेल एवंविध निराधार भ्रमम् न विश्वसितुम् सर्वान् अन्वरुणाच्च। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह भारतस्य स्थलसेनाध्यक्षेण उपेन्द्र द्विवेदिना ह्य शिष्टाचार मेलवार्ता विहितास्ति। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सम्भूते अनयोर्मेलने द्विपक्षीय हितस्य अभिरुचेः नेपाल भारतयोः सैनिक सम्बन्धस्य च विषयेष् विमृष्टमिति प्रधानमन्त्रिणः कार्यालयेन ज्ञापितम् वर्तते। तदवसरे प्रधानमन्त्री ओली नेपाल भारतयोः सेनापतिभ्याम् मानार्थ महारथ्युपाधेः आदान प्रदानस्य मौलिक परम्परायाः विद्यमानम् नैरन्तर्यम् प्रति प्रसन्नताम् अभिव्यज्य द्वयोः प्रतिवेशिनोः सम्बन्धस्य सहकार्यस्य च इतोऽपि आधिक्येन वर्धनस्य आवश्यकताम् प्रादर्शयत। मेलने भारतस्य स्थलसेनाध्यक्ष द्विवेदी नेपाली सेनायाः मानार्थ सेनापति पदस्य प्राप्तिम् प्रति गर्वानुभूतिः भूतास्तीति भाषमाणः, द्वयोः देशयोः सम्बन्धम् दृढयितुम् सेनायाः भूमिका वर्धिष्यते इति प्रावोचत्। सर्वकारेण पूर्व सचिवस्य रामेश्वर खनालस्य अध्यक्षतायां संघटिते उच्चस्तरीय आर्थिक सुधार परामर्शनायोगे नैयक्षेत्रादपि सदस्याः समाविष्टाः वर्तन्ते। मन्त्रिपरिषदः निर्णयान् सार्वजनिकर्तुम् संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ, नैज क्षेत्रात् नेपालोद्योग वाणिज्य महासंघस्य अध्यक्ष चन्द्रप्रसाद ढकालः, नेपालोद्योग परिसंघस्य अध्यक्ष राजेश कुमार अग्रवाल, नेपाल चेम्बर अफ कमर्स संस्थाया अध्यक्ष कमलेश कुमार अग्रवाल च सदस्याः समाविष्टाः सन्तीति असूचयत्। फिलिपिन्स देशस्य मनिलास्थाने अस्यैव मार्गशीर्ष मासस्य पञ्चविंशात् सप्तविंशम् दिवसम् यावत् आयोक्ष्यमाणे सबला यातायात व्यवस्था सम्बद्ध विमर्शन कार्यक्रमे राष्ट्रिय योजना आयोगस्य उपाध्यक्षाय प्राध्यापकाय डाक्टर शिवराज अधिकारीणे सहभागी भवितुम् अनुमति प्रदानाय निर्णीतमस्ति। उपवेशन प्रहरी नायब महानिरीक्षक द्वयस्य बुद्धिराज गुरूङ केदार ढकाल इत्यनयोः प्रहरी अतिरिक्त महानिरीक्षक पदे पदोन्नतिम् विधातुम् डाक्टर लवदेव अवस्थी, गोपीनाथ मैनाली, उमेश राज जोशी, सुरेन्द्र कुमार झा, प्राध्यापक योगेन्द्र गुरूङ, शर्मिला कार्की, चेती जनान, विभूषण समिति सदस्य निश्चेतुम् च निर्णीतम् वर्तते इति प्रवक्ता मन्त्री गुरूङ असूचयत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड विभक्तानि माओवादी दलानि एकताया प्रक्रियायां वर्तन्ते इति सूचयति। चितवन जनपदस्य कुरिन्टार स्थाने ह्य दल कार्यकर्तृभिः सह विते मेलन विमर्शन कार्यक्रमे अध्यक्ष दाहाल विभाजनस्य श्रृंखला अवरुद्धास्ति, एकताया प्रक्रिया प्रारब्धा च वर्तते इति अवोचत्। नेपाली कांग्रेस दलेन अर्थतन्त्रस्य विज्ञव्य देशस्य आर्थिक अवस्थायाः तत्र सुधारस्य उपायानां च सन्दर्भे परामर्शनानि संगृहीतानि सन्ति। नेपाली कांग्रेस संसदीय दलेन ह्य विमर्शनम् आयोज्य पूर्वार्थ मन्त्रीभ्य, पूर्वार्थ राज्य मन्त्रीभ्य, राष्ट्रिय योजना आयोगस्य उपाध्यक्षेभ्य, नेपाल राष्ट्र कोषागारस्य अधिशासकेभ्य, उद्योग वाणिज्य महासंघस्य नेपाल चम्बर अफ कमर्स संस्थायाः, नेपाल उद्योग परिसंघस्य निर्माण व्यवसाय महासंघस्य च प्रमुखेभ्य, प्रतिनिधिभ्य, अर्थविद्भ्यश्च परामर्शनानि संकलितानि वर्तन्ते। कार्यक्रमे प्राप्तानि परामर्शनानि नेपाली कांग्रेस दलस्य संसदीय दलस्य आगामिनी उपवेशे विमृश्य तेषां क्रियान्वयनार्थं नेपाल सर्वकारः सपरामर्शम् अनुरोधस्यते इति नेपाली कांग्रेस दलस्य संसदीय दलस्य प्रमुख सचेतक पदीयः श्याम कुमार घिमिरे अज्ञापयत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं नेपालस्य कृते विभिन्नानां देशानां राजदूतैः पदीय प्रमाणपत्रं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते पृथक पृथक समारोहे नेपालस्य कृते इजरायल देशस्य आवासीय राजदूतः स्मुलिक एरिवासा, स्पेन देशस्य आवासीय तर राजदूतः जुआन एन्टोनियो मार्च प्रजोल, न्यूजील्याण्ड देशस्य आवासीय तर राजदूतः पेट्रिक जोन राठा च स्वपदस्य प्रमाणपत्रं प्रस्तुतवन्तः इति राष्ट्रपतेः कार्यालयेन ज्ञापितमस्ति। समारोहे परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा, नेपाल सर्वकारस्य उच्च पदस्थाधिकारिणश्च उपस्थिताः आसन्। राष्ट्रपतिना रामचन्द्र पौडेलेन सह सभामुखेन देवराज घिमिरे विदेन मेलवार्ता विहितास्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य सम्भूते अनयोर्मेलने सभामुख घिमिरे राष्ट्रपते समक्षं कम्बोडिया देशस्य स्वकीय भ्रमणस्य विषयं ज्ञापितवानिति राष्ट्रपति कार्यालयेन सूचितमस्ति। सभामुख घिमिरे कम्बोडिया देशस्य राजधान्यां नोपेन्ह नगरे अद्यतः अस्यैव मार्गशीर्ष मासस्य एकादश दिवसं यावत् आयोज्यमाने अन्तर्राष्ट्रिय संसद सम्बद्धे कार्यक्रमे भागं ग्रहीतुं तत्र प्रस्थीयमानो वर्तते। पेयजल मन्त्री प्रदीप यादव आराष्ट्रं पेयजल योजनाया सम्भार कार्यं शीघ्रं सम्पादयितुं निर्दिशति। मन्त्री यादव गताश्विन मासस्य एकादश द्वादश दिवसयो दुरापन्नेन जल विप्लवेन भूस्खलनेन च आराष्ट्रं पेयजल प्रणाल्यां गभीरा समस्या आपतितास्तीति अवोचत् इति समाचारः।